एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः स्वास्थ्यलाभानन्तरं चिकित्सालयात् राष्ट्रपति भवनं प्रत्यागतोऽस्ति। प्रोस्टेट नामाख्यायाः मूत्राशय सम्बद्ध समस्यायाः समाधानाय शल्यक्रियायाः पश्चात् स्वास्थ्यलाभं विधाय यः चिकित्सालयात् राष्ट्रपति भवनं प्रत्यागतवान् अस्ति इति त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालयस्य निमित्त कार्यकारी निर्देशकः घनश्याम गुरुङ विज्ञप्तिं प्रकाश्य सूचितवान् अस्ति। अत्रान्तरे राष्ट्रपतिः पौडेलः उपचारे संलग्नेभ्यः सर्वेभ्यः चिकित्सकेभ्यः स्वास्थ्यकर्मिभ्यः चिकित्सालयस्य अन्येभ्यः कर्मचारिभ्यः स्वास्थ्यलाभस्य कामनां प्रयच्छद्भ्यः सर्वेभ्यः हितैषिभ्यश्च आभारम् अभिव्यनक् इति राष्ट्रपति कार्यालयेन ज्ञापितं वर्तते। राष्ट्रपतेः पौडेलस्य गत बुधवासरे मूत्राशय सम्बद्धा शल्यक्रिया सम्भूता आसीत्। उपप्रधान अर्थमन्त्री विष्णुप्रसाद पौडेलः सप्ताहस्य अभ्यन्तरे निर्माण व्यवसायेभ्यः प्रदेयं वित्तं प्रदास्यते इति प्रतिबद्धतां व्यनक्ति। नेपाल आर्थिक पत्रकार संघेन आयोजिते विकास व्ययकस्य परिचालनाय सर्वकारस्य नैज क्षेत्रस्य च भूमिका इति विषयके विमर्शन कार्यक्रमे अर्थमन्त्री पौडेलः कार्यं सम्पादितेभ्यः निर्माण व्यवसायेभ्यः प्रदेयं वित्तम् अधिकाधिकं सप्ताहस्य अभ्यन्तरे सम्बद्ध निकायानां माध्यमेन प्रदास्यते इति प्रतिबद्धतां व्यक्तवान्। निर्माण व्यवसायेभ्य ऋण वित्तस्य प्रदानस्य कृते समयसीम्नः वर्धनस्य विषये नेपाल राष्ट्रकोषेण सह विमृश्य उचित समाधानम् अन्विष्यते इति चर्चयन् अर्थमन्त्री पौडेलः निर्माण व्यवसायिभिः कोषागारेभ्यः प्रदेयस्य वित्तस्य प्रदानाय समयावधि अस्यैव मार्गशीर्ष मासस्य अन्तं यावद् अस्ति इति अज्ञापयत्। अर्थमन्त्री पौडेलः समेषां संयुक्त लक्ष्यं विकास निर्माणम् अस्तीत्यतः सर्वकारेण निर्माण क्षेत्रं सदैव प्राथमिकतायां स्थाप्यते इति अवोचत्। परराष्ट्रमन्त्री डाक्टर आरजू राणा देउवा भाषते नेपाल चीन देशयोः सम्प्रत्येव सम्पन्नायां संविधायां ऋण ग्रहणस्य विषयः कुत्रापि उल्लिखितो नास्ति। जलवायु परिवर्तन सम्बद्धे अन्तर्राष्ट्रिय कार्यक्रमे भागं ग्रहीतुं नेदरल्याण्ड देशे प्रस्थानात् पूर्वं ह्यः त्रिभुवनान्तर्राष्ट्रिय विमानस्थले मन्त्री डाक्टर राणा नेपाल चीन देशयोः विहितानां संविधानां विषये गभीरा अध्ययनेन विना वृथैव टिप्पणी विधीयमानास्तीति उक्तवती। संविधायां बीआरआई संविधा सम्बद्धा परियोजनाः द्वयोः देशयोः सहमत्या एव अग्रेसारयिष्यन्ते इति स्पष्टम् उल्लिखितमस्तीत्यतः नेपालस्य सहमतेः अनुसारेणैव संविधा अग्रेसारयिष्यते इति डाक्टर राणा स्पष्टयत्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा निगदति सर्वकारेण वैदेशिकस्य ऋणस्यापेक्षया अनुदानं प्राथमिकतायां स्थाप्यते। नेपाली कांग्रेस दलस्य कोशी प्रदेश सम्मेलनं पूर्वेद्यः उद्घाटयन् सभापतिः देउवा सम्प्रति अधिकं ऋणं गृहीत्वा परियोजनानां सञ्चालनस्य सर्वकारस्य अवस्था नास्तीति चर्चयन् नेपालेन विकासाय ऐषयिक वित्तकोषादिभिः ऋणे गृहीतेऽपि सम्प्रति ऋण ग्रहणस्य अवस्था नास्तीति अगदत्। सभापतिः देउवा बीआरआई संविधा बहुधा विचारैव विहितोऽस्तीति उदैरयत्। प्रधान न्यायाधीशः प्रकाशमान सिंह राउत कथयति समेषां प्रयासेन सम्प्रति न्यायालयेन गतिः गृहीता अस्ति। काष्ठमण्डपे आयोजिते वरिष्ठाधिवक्तृभ्यः प्रमाणपत्र वितरण समारोहे प्रधान न्यायाधीशः राउत गतिशील न्यायालयाय अतः परं गरिममयं विधातुं सर्वहि प्रयतनीयम् इति प्रावोचत्। प्रधान न्यायाधीशः राउत न्यायालयं गरिममयं विधातुं विधीयमानाय आत्मनः प्रयासाय सहयोगं विधातुं वरिष्ठाधिवक्तृन् अन्वरुणत्। वरिष्ठाधिवक्तृभिः उच्चस्तरीय मर्यादायाः अभ्यासः विधातव्यः इत्यत्र बलं प्रददत्। प्रधान न्यायाधीशः राउत नैतिकतायाः लक्ष्मणरेखायाः अभ्यन्तरे स्थातुं न्यायाधीशान् अन्वरुणत्। सभामुखः देवराज घिमिरे निगदति शिक्षाक्षेत्रं समीचीनतया अग्रे वर्धितुं सदैव समाजस्य सर्वाः समस्याः शिक्षा क्षेत्रम समीचीनतया अग्रे वर्धितुम सदैव समाजस्य सर्वः समस्याः समाधातुम शक्यते। शिक्षक हित बचत ऋण सहकारी संस्थायाः ह्य ललितपुरस्य जावलाखेल स्थाने आयोजितायाम् वार्षिक साधारण सभायाम् सभामुख घिमिरे शिक्षायाः जनचेतनायाश्च प्रदायकः शिक्षकः समाजः कस्मिन् मार्गे नेयः इत्यस्मिन् विषये महत्वपूर्णा भूमिका निरूह्यते इति अभाषत। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ नेपाली चलचित्र क्षेत्रस्य विकासाय प्रवर्धनाय च आवश्यकाधिनियमस्य सुधारार्थं सर्वकारेण विलम्बो न करिष्यते इति स्पष्टयति। काष्ठमण्डपे ह्य आयोजिते कार्यक्रमे संचार मन्त्री गुरुङ चलचित्रं जनसामान्येषु विचार सम्प्रेषणार्थं सबलं साधनमस्तीति अगदत्। मन्त्री गुरुङ चलचित्रस्य प्रदर्शनाय वितरणाय निर्माणाय च षड्विंशत्युत्तर द्विसहस्रतमात् वैक्रमाब्दात् प्रारब्धस्य चलचित्राधिनियमस्य समस्या नूतनाधिनियमस्य महत्वं च विचार्य अस्मिन्नेव वर्षे नवीनस्य अधिनियमस्य प्रस्तावम् आनेतुं मन्त्रालयेन पूर्वकार्यं विधीयमानमस्तीति असूचयत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे निगदति उड्डयन क्षेत्रस्य सुरक्षायाः कृते सर्वकारः प्रतिबद्धो वर्तते। अन्तर्राष्ट्रिय नागरिकोड्डयन दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री पाण्डे सुरक्षितम् आकाशम् सर्वकारस्य प्राथमिकतायामस्ति इति अगदत्। तदवसरे मन्त्री पाण्डे उड्डयनम् सुरक्षितम् विधातुम् नियमनकारिणम् निकायम् निरन्तरेण जागरूकम् विधाय उड्डयन दुर्घटना सम्बद्धाय अनुसन्धानाय स्थायिनः आयोगस्य संघटनस्य प्रक्रिया प्रारब्धा अस्तीति असूचयत्। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला निगदति सत्ता सहयात्री दलेषु प्रतिस्पर्धा सहकार्यञ्च आवश्यके स्तः। नेपाल प्रेस युनियन संघस्य चितवन शाखया ह्य आयोजिते पत्रकार सम्मेलने नेता डाक्टर कोइराला प्रतिस्पर्धा सहकार्यं च परस्परं परिपूरके भवतः इति प्रत्यपादयत्। विपुल दलद्वयं मिलित्वा निर्मितः वर्तमानः सर्वकारोऽस्तीत्यतः असफलो भवितुम् अवकाशः अस्मै सर्वकाराय नास्तीति उदैरयत्। पश्चिमस्य वातस्य प्रभावेण अद्यतः वातावरणे परिवर्तनम् सम्भवतीति जलवायु वातावरण पूर्वानुमान विभागेन ज्ञापितम् वर्तते। श्वस्तनात् दिवसात् सुदूरपश्चिम कर्णाली लुम्बिनी गण्डकी बागमती प्रदेशानां पर्वतीयेषु भूभागेषु स्वल्पा मध्यमा वा वृष्टिः सम्भवतीति जलवायु विभागेन ज्ञापितमस्ति। एवमेव हिमालय क्षेत्रेषु हिमपातेन शैत्यं वर्धितुं शक्नोतीत्यतः शैत्याद् आत्मानं रक्षितुं वातावरण विभागेन सर्वे जनाः अनुरुद्धा वर्तन्ते। त्रिभुवन विश्वविद्यालयस्य क्रिकेट क्रीडा प्राङ्गणे सञ्चाल्यमानायाम् एनपीएल क्रिकेट क्रीडा स्पर्धायाम् ह्य कर्णाली क्रिकेट समूहेन विराटनगर किंग्स समूह पराजितोऽस्ति। विराटनगर क्रिकेट क्रीडा समूह कर्णाली समूहात् सप्तभि धावनांक हि पराजितो वर्तते। तथैव ह्य क्रीडितायां द्वितीय क्रीडायां लुम्बिनी क्रिकेट क्रीडा समूह सुदूरपश्चिम क्रीडा समूहेन पञ्चचत्वारिंशत् धावनांक हि पराजितो वर्तते। लुम्बिनी क्रिकेट क्रीडा समूहस्य अयं तृतीय पराजयो अस्ति। इति समाचारः।